अथ द्वितीयोऽध्यायः। सञ्जय उवाच तम् तथा कृपया विष्ठाम् अश्रुपूर्णाकुलेक्षणम् विशिदन्तमिदम् वाक्यम् उवाच मधुसूदनः। श्रीभगवानुवाच कृतस्त्वाकशमलिदम् विषमे समुपस्थितम् अनार्यजुष्टमः स्वर्गम् अकीर्तिम् कर्म अर्जुन क्लैब्यम् मास्मगमः पार्थ नैतत्त्वयुपपद्धते क्षुद्रम् हृदय दुर्बल्यम् त्यक्त्वोत्तिष्ठ परन्तप। अर्जुन उवाच कथम् भीष्म अहम् सङ्ख्ये द्रोणम् च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजाहार्वरिसूदन। गुरुनिहत्वा हि महानुभावान् श्रेयो भोक्तुम् भैक्षमपि हलोके हत्वार्थकामांस्तु गुरुनिहैव भुञ्जीय भोगान् रुडिर्प्रतिज्ञान्। न चैतद्विद्मः कतरन्नो गरेयो यद्वा जयेम यदि वा नो जयेयोः यानेव हत्वा न जिजेविषाम स्तेव स्थितः प्रमुखे धात्र राष्ट्राः। कार्पण्यदोषोऽपहतः स्वभावः प्रोक्ष्यामि त्वम् धर्म सम्मूढचेताः। यश्रेयरस्यान्निश्चितम् ब्रूहि तन्मे शिष्यस्ति हंसादि माम् त्वम् प्रपन्नम्। न हि प्रपश्यामि ममापुनाध्यात् यक्षोकमुक्षोक्षणमिन्द्रियाणाम्। अवाप्य भूमावसवत्नमृद्धम् राज्यम् सुराणामपि चाधिपत्यम्। सञ्जय उवाच एवमुक्त्वा ऋषिकेशम् गुडाकेशः परन्तप न योत्स इति गोविन्द मुक्त्वा तृष्णीम् बभूवः। तमुवाच ऋषिकेशः प्रहसिन्नेव भारत सेनयोरुभयोर्मध्ये विषिदन्तमिदम् वचः। श्रीभगवानुवाच असोच्यानन्वसोच्यत्स्वम् प्रज्ञावादांश्च भाससे गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः। न त्वेवाहम् जातु नासम् न त्वम् नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम्। देहिनोऽस्मिन् यदा देहे कोमारम् यौवनम् जरा तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यते। मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनो नित्या ताम् स्थितिक्षस्व भारत यम् हि न व्यथनयन्ते ते पुरुषम् पुरुषर्षभ। समदुःखः सुखम् धीरम् सोमृतत्वाय कल्पते नासतो विध्यते भावो न भावो विध्यते सतः। उभयरोरपि दृष्ट्वन्त्वस्त्वयनोस्तत्त्वदर्शिभिः अविनाशितु तद्विद्धि येन सर्वमिदम् ततम् विनाशनम् अव्ययस्यास्य न कश्चित् कर्तुमर्हते। अन्तवन्त इमे देहा नित्ययुक्ता शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युच्यस्व भारत। य एनम् वेति हन्तारम् यश्चैन्यम् मन्यते हतम् उभौतो न विजानीतो नायम् हन्ति न हन्यते। न जायते म्रियते वा कदाचिन् नायम् भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयम् पुराणो न हन्यते हन्यमाने शरीरे। वेदा विनाशिनम् नित्यम् य एनमजमव्ययम् कथम् स पुरुषः पार्थ कम् घातयति हन्तिकम्। वासांसि जीर्णानि यथा विहाय न वानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि सम्याति न वानि देहे। नैनम् छिद्दन्ति शस्त्राणि नैनम् दहति पावकाः न चैनम् क्लेदयन्त्यापो न शोषयति मारुताः अक्षेद्योऽयम् अधायोऽयम् अक्लेद्यो शोष एव च नित्यः सर्वगतस्थाणुरचलोऽयम् सनातनः अव्यक्तोऽयमचिन्त्योऽयम् अविकारोऽयमुच्यते तस्मादेवम् विदित्वैनम् नानुशोचितुमर्हसि अथ चैनम् नित्यजातम् नित्यम् वा मन्यसे मृतम् तथापि त्वम् महाबाहो नैवम् शोचितुमर्हसि जातस्य हि ध्रुवो मृत्युर्ध्रुवम् जन्म मृतस्य च तस्मादपरिहार्येऽर्ते न त्वम् शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्त्वा मध्यानि भारत अव्यक्तानिधनान्यैव तत्र का परिदेवना आश्चर्यवत्पश्चित् कश्चिदेनम् आश्चर्यवद्वदति तथैव चान्याः आश्चर्यवचैन्यमन्यशृणोति श्रुत्वाप्येनम् वेद न चैव कश्चित् देहि नित्यम् अवध्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचितुमर्हसि स्वधर्मपि चावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्विरुद्धश्रेयोऽन्यत् क्षत्रियस्य न विद्यते यदृच्छाया चोपपन्नम् स्वर्गद्वारमपावृतम् सुखिनः क्षत्रिया पार्थ लभन्ते युत्रमित्रिशम् अथ चेत्त्वम् इमम् धर्मम् सङ्ग्रामम् न करिष्यसि ततः स्वधर्मम् कीर्तिंश्च हित्वा पापमवाप्स्यसि अकीर्तिम् चापि भूतानि कथयिष्यन्ति ते वयाम् सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते भयाद्रणादुपरतम् मंसन्ते त्वम् महारथाः येषाम् च त्वम् बहुमतो भूत्वा यास्यसि लाघवम् अवाश्च वादांश्च बहून् वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थम् ततो दुःखतरम् नु किम् हतो वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्षसे महिम् तस्मादुत्तिष्ठ कौन्तेय युद्ध्याय कृतनिश्चयः सुखे दुःखे समे कृत्वा लाभालाभो जयाजयो ततो युद्ध्याय युच्यस्व नैवम् पापमवाप्स्यसि येषा ते विहिताः सङ्ख्ये बुद्धियोगे विमाम् शृणु बुद्धया युक्तो यया पार्थ कर्मबन्धम् प्रहास्यसि नेहाविक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिर् एकेह कुरु नन्दन बहुशाखायनन्ताश्च बुधयो अव्यवसायिनाम् यामि माम् पुष्पिताम् वाचम् प्रवद्यन्ते विपश्चितः वेदवादरतः पार्थ नान्यदस्तीति वादिनः कामात्मनः स्वर्गपरा जन्मकर्मफलप्रदाम् क्रियाविशेषबहुलाम् भोगैश्वर्यगतिप्रति भोगैश्वर्यप्रसक्तानाम् तयापहृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधो न विधीयते त्रैगुण्यविषया वेद निस्त्रैगुण्यो भवार्जुन निर्दन्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् यावनर्थ उदप्पाने सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्वकर्मणि योगस्तकुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्धया सिद्धयो समो भूत्वा समत्वम् योग उच्यते दूरेण हि वरम् कर्म बुद्धियोगाद्धनञ्जय बुद्धो शरणमन्विच्छ कृपणः फलहेतवः बुद्धियुक्तो जहातीह उभे सुकृत दुष्कृते तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् कर्मजम् बुद्धियुक्ता हि फलम् त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदम् गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिव्यतितरिष्यते तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते यदा स्थास्यति निश्चला समाधावचला बुद्धिस्तदा योगमवाप्स्यसि अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्तस्य केशव स्थितधिः किम् प्रभाषेत किमासीत व्रजेत किम् श्रीभगवानुवाच प्रजाहाति यदा कामान् सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदुच्यते दुःखेष्वनुविघ्नः मनः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधिर्मुनिरुच्यते यः सर्वत्र नाभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते चायम् कूर्मोकानेव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्य तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जम् रसोपस्यम् परम् दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेय पुरुषस्य विपश्यतः इन्द्रियाणि प्रमार्थीनि हरन्ति प्रसभम् मनः तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंसः सङ्गस्तेषुपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते क्रोधाद्भवति सम्मोहः सम्मोहास्मृतिविभ्रमः स्मृतिर्भ्रंशाद्बुद्धिनाशो बुद्धिनाशात् प्रणश्यते रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति प्रसादे सर्वदुःखाणाम् हानिरस्योपजायते प्रसन्नचेतसो व्याशु बुद्धिः परिवतिष्ठते नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः क्षान्तिर् अशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरताम् यन्मनोऽनुविधीयते तदस्य हरति प्रज्ञाम् वायुर्नाम् इव माम्भसे तस्मादस्य महाबाहो निगृहितानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्य तस्य प्रज्ञा प्रतिष्ठिता यानि शः सर्वभूताणाम् तस्याम् जागृति संयमे यस्याम् जागृति भूतानि सानि शः पश्यतो मुनेः अपूर्यमाणामचलम् प्रतिष्ठम् समुद्रमापः प्रविशन्ति यद्वत् तद्वत् कामायम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति येषाम् ब्राह्मीस्थितिः पार्थ नैनाम् प्राप्य विमुह्यते स्थित्वास्य अन्तकालेऽपि ब्रह्मनिर्वाणमधिगच्छति ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः